श्री भगवानुवाच मय्यावेश्यमनो ये माम्
नित्ययुक्ता उपासते
श्रद्धया परयोपेताः
ते मे युक्ततमामताः।